अथ श्रीतुलसीकवचम् श्रीगणेशाय नमः। अस्य श्रीतुलसीकवचस्तोत्रमन्त्रस्य श्रीमहादेवऋषिः अनुष्टुप् छन्दः। श्रीतुलसीदेवता मम ईप्सितकामनासिद्ध्यर्थै जपे विनियोगः। ॐ तुलसी श्रीमहादेवी नमः पङ्कजधारिणी शिरो मे तुलसी पातु भालं पातु यशस्विनी। दृशौ मे पद्मनयना श्रीसखी श्रवणी मम। ग्राणं पातु सुगन्धा मे मुखै च सुमुखी मम। जिह्वा मे पातु शुभदा कण्ठौ विद्यामयी मम। स्कन्धौ कह्लारिणी पातु हृदयौ विष्णुवल्लभा। पुण्यदा मे पातु मध्यन्नाभिं सौभाग्यदायिनी। कटिं कुण्डलिनीं पातु ऊरु नारदवन्दिता। जननी जानुनी पातु जङ्घे सकलवन्दिता। नारायणप्रिया पादौ सर्वाङ्गं सर्वरक्षिणी। संकटे विषमे दुर्गे भये वादे महाहवे। नित्यं हि सन्ध्ययोः पातु तुलसी सर्वतः सदा। इतीदं परमङ्गुह्यन् तुलस्याः कवचामृतम्। मर्त्यानामृतार्थाय भीतानामभयाय च मोक्षाय च मुमुक्षूणान् ध्यायिनान् ध्यानयोगकृत्। वशाय वश्यकामानां विद्यायै वेदवादिनाम्। द्रविणाय दरिद्राणां पापिनां पापशान्तये। अन्नाय क्षुधितानाय च स्वर्गाय स्वर्गमिच्छिताम्। पशव्यं पशुकामानां पुत्रदं पुत्रकाङ्क्षिणाम्। राज्याय भ्रष्टराज्यानामशान्तानाय च शान्तये। भक्त्यर्थं विष्णुभक्तानां विष्णौ सर्वान्तरात्मनि। जाप्यन्त्रिवर्गसिद्ध्यर्थं गृहस्थेन विशेषतः। उद्यन्तै चण्डकिरणमुपस्थाय कृताञ्जलिः। तुलसीकानने तिष्ठन्नासीनो वाजपेदिदम्। सर्वान् कामान् वाप्नोति तथैव मम सन्निधिं। मम प्रियकरं नित्यं हरिभक्तिविवर्धनं। यास्यान्मृतप्रजानारी तस्या अङ्गं प्रमार्जयेत्। पुत्र लभते दीर्घ जीविनै चाप्यरोगिणम् वन्ध्याया मार्जयेदङ्गम् कुशैर्मन्त्रेण साधकः सोऽपि संवत्सरादेव गर्भं धत्ते मनोहरम् अश्वत्थीराजवश्यार्थी जपेदग्ने सुरूपभाक् पलाशमूले विद्यार्थी तेजोर्थ्यभिमुखो रवेः कन्यार्थी चण्डिकागेः शत्रुहत्यै गृहे मम श्रीकामो विष्णुगेः च उद्याने स्त्रीवशा भवेत् किमत्र बहुनोक्तेन शृणु सैन्येश तत्त्वतः यं काम विध्यायेत् तन्तं प्राप्नोत्य संशयम् मम गेहगतस्त्वन्तु तारकस्य वधेच्छया जपन् स्तोत्रै च कवचं तुलसी गतमानसः मण्डलातारकं हन्ता भविष्यसि न संशयः इति श्रीब्रह्माण्डपुराणे तुलसीमाहात्म्ये तुलसीकवचं सम्पूर्णम्।